प्रविस्तरम्
एकैकमक्षरम् पुंसां महापातकनाशनम् चरितं रघुनाथस्य शतकोटि प्रविस्तरम्
एकैकमक्षरम् पुंसां महापातक नाशनम् ध्यात्वा नीलोत्पल श्यामं रामं राजीव लोचनम्
जानकी लक्ष्मणोपेतं जटा मुकुट मंडितं
सासि तूड धनुर्बाण चरांतकं
वलीलया जगत्रातुम आविर्भूतमजं विभुं
राम रक्षां पठित प्राज्ञः पापघ्नीं सर्वकामदां कौसल्येयो दृशौ पातु विश्वामित्र प्रियः श्रुति
प्राणं पातु मखत्राता मुखं सौमित्र वत्सलः
दिव्यां विद्यानि दीपातु कंठं भरत वंदितः हृदयं जाम दग्निजित्
मध्यं पातु खरध्वंसी नाभिं जाम वदाश्रयः
चरितं रघुनाथस्य शतकोटि प्रविस्तरम्
एकैकमक्षरम्
ध्यात्वा नीलोत्पल श्यामं रामं राजीव लोचनम्
जानकी लक्ष्मणोपेतं जटा मुकुट मंडितं
रक्षः कुल विनाशकृत्
जानुनी सेतु कृत पातु जंघे दश मुखांतकः
पादौ विभीषण शीदः पातु रामोऽखिलं वपुः
सुकृति पठे
चिरायुः सुखी पुत्री विजयी विनयी भवेत्
पाताल भूतल व्योम चारिणश्च चारिणः
न द्रष्टुमपि शक्तास्ते रक्षितं राम नामभिः
रामीति राम भद्रेति रामचन्द्रेति वा स्मरन्
प्राप्यते पापर् भुक्तिं मुक्तिं च विन्दति। यः कण्ठे धारयेत् तस्य करस्थः सर्वसिद्धयः।
वज्रपञ्चरनामिदं यो रामकवचं स्मरे
अव्याहताज्ञ सर्वत्र लभते जय मङ्गलम्। एकैकमक्षरं पुंसां महापातकनाशनम्।
रात्वानीलोत्पलश्यामं रामं राजीवलोचनम्।
जानकी लक्ष्मणो पेतं जटामुकुटमण्डितम्। आदिष्टवान्यथा स्वप्ने राम रक्षामि मां हरः।
तथा लिखितवान् प्रातः प्रबुद्धो बुध कौशिकः।
आरामः कल्पवृक्षाणां विरामः सकलापदा।
अभिराम
महाबलौ
पुण्डरीक विशालाक्षो क्षीरकृष्णाजिनाम्बरो।
फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ।
पुत्रौ दशरथस्यैतौ
शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मता।
रक्षः कुलनिहन्तारौ त्रायेता मनुरघुत्तमौ।
आत्सज्जधनुषा विशुस्पृश वक्षया शुघनिशङ्गसङ्गिनौ। चाप बाण धरो युवा।
गच्छन् मनोरथानश्च रामः पातु स लक्ष्मणः।
चरितं रघुनाथस्य शतकोटि प्रविस्तरम्।
एकैकमक्षरम्
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्।
जानकी लक्ष्मणो पेतं जटामुकुटमण्डितम्।
पुत्स्थ पुरुषः पूर्णः कौशल्येयो रघुतमः
वेदांत वेद्यो यज्ञेशः पुराण पुरुषोत्तमः
जानकी वल्लभः श्रीमान् प्रमेय पराक्रमः
श्रद्धयान्वितः
अश्वमेधाधिकं पुण्यं संप्राप्नोति न संशयः
रामं दुर्वादलश्यामं पद्माक्षं पीतवाससं
दुवन्ति नामभिर्दिव्यैः ते संसारिणो नरः
रामं लक्ष्मण पूर्वजं रघुवरं सीतापतिं सुन्दरं
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् वंदे लोकाभिरामं रघुकुल तिलकं राघवं रावणारिं
रामाय रामभद्राय रामचन्द्राय वेधसे
रघुनाथाय नाथाय सीतायाः पतये नमः एकैकमक्षरं पुंसां महापातक नाशनं
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनं
जानकी लक्ष्मणो पीतं जटामुकुट मण्डितम्
वरिष्ठं वातात्मजं वानरयो
रघुनाथस्य शतकोटि प्रविस्तरम्
एकैकमक्षरम् पुंसा महापातकनाशनम्
ध्यात्वा नीलोत्पलश्यामम् रामं राजीवलोचनम्
जानकी लक्ष्मणोपेतं जटामुकुट मंडितं
निशाचर चमूरामाय तस्मै नमः
रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहम्
रामे चित्तलयः सदा भवतु मे भो राम माम् उद्धर
राम रामेति रामेति रमी रामी मनोरमी
सहस्रनाम तत्तुल्यं राम नाम वरानने चरितं रघुनाथस्य शतकोटि प्रविस्तरम् एकैकमक्षरं पुंसां महापातकनाशनं ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनं जानकी लक्ष्मणो पीतं जटामुकुटमण्डितम्।